एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते सबल विकासस्य लक्ष्यं प्राप्तुं संघीय प्रादेशिक स्थानीय सर्वकारैः सह नैज सहकारी सर्वकारेतर क्षेत्राणां नागरिक समाजस्य विकास सहयोगिनां च मध्ये सहकार्यम् आवश्यकं वर्तते। सिंह प्रासाद स्थित प्रधानमन्त्री मन्त्री परिषद कार्यालये गतदिने आयोजितम सबल विकास लक्ष्य राष्ट्रिय निर्देशक समितेः उपवेशम सम्बोधयन् प्रधानमन्त्री प्रचण्ड अवोचत् सबल विकास लक्ष्यस्य क्रियान्वयनाय नैज सहकारी क्षेत्रयो सर्वकारेतर संस्थानां नागरिक समाजस्य विकास सहयोगिनां च सर्वेषां महत्वपूर्ण भूमिका भवति। उपवेशे राष्ट्रिय योजनायोगस्य उपाध्यक्षेण डा मीनबहादुर श्रेष्ठेन सबल विकास लक्ष्यस्य प्राप्तये नेपालेन विद्यमानयोः प्रयास प्रगत्योर्विषये ज्ञापितम् आसीत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड वदति सर्वकारेण पूर्णता प्राप्तेरनन्तरं विकास निर्माणयोः सर्वकारस्य च कार्याणि गतिशीलानि भविष्यन्ति। ह्यो गोरखा जनपद चिकित्सालयस्य स्वर्ण महोत्सव समारोहे प्रधानमन्त्री प्रचण्ड अवोचत् सम्प्रति नीति कार्यक्रमाणाम् आयव्ययकस्य च निर्माणस्य चरणे विद्यमानताया हेतोः विकासस्य स्वरूपे नवीनतां स्रष्टुं पूर्वकार्यं विद्यमानं वर्तते। प्रधानमन्त्री प्रचण्ड गोरखा चिकित्सालयस्य विकासाय सर्वकार सहयोगं विदधातीति प्रतिबद्धताम् अभिव्यनक। गतदिने एव गोरखा जनपदीयेन नेकपा माओवादी केन्द्रेण आयोजिते दलस्य कार्यकर्तृणां मेलने प्रधानमन्त्री प्रचण्ड शान्ति प्रक्रियाया अवशिष्ट कार्याणि वर्षद्वयस्य अभ्यन्तरे निर्णेतुं प्रतिबद्धतां व्यक्तवान्। असौ अकथयत् सर्वकारस्य शतदिनानां कार्यैः देशे विकास समृद्धिः आधारः निर्मितो वर्तते। प्रधानमन्त्री प्रचण्ड जनतया यान चालकानुमति पत्रस्य पारपत्रस्य अन्यासां वा सेवानां प्राप्त्यर्थं षोडव्यायाः समस्यायाः अन्तस्य विदेशस्थितानां लक्ष्यसु नेपालीनां सामाजिक सुरक्षायां संयोजनस्य च प्रारभणं सर्वकारस्य प्रारम्भिक चरणस्य महत्वपूर्ण कार्यमस्तीति अब्रवीत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति राष्ट्रहितस्य विपरीततया कस्यापि विधेयकस्य क्रियान्वयनम् न भवति। प्रतिनिधि सभाया ह्यस्तनोपवेशे सार्वजनिक महत्वस्य विषयम् आधृत्य भाषमाणा मन्त्री शर्मा दूरसंचार विधेयकस्य प्रारम्भिकं प्रारूपं निर्माणस्य क्रमे स्थिति हेतोः अनुचितं कार्यं रोद्धुम् आत्मनः दृढतास्तीति प्रत्यपादयत्। मन्त्री शर्मा विधेयकस्य सम्बन्धे सम्बद्ध जनानां व्यापक सहभागितां विधाय पूर्ववर्ती विधिनाम् आधारभूमौ अधिनियमः क्रियान्वेष्यते इत्यत्र न शंकितुम् अन्वरुणत। उपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन्ति मन्त्री शर्मा दूरसंचार सेवायाः गुणस्तरम् अभिवर्ध्य सर्वसुलभां विधाय च सर्वत्र प्रापयितुं सर्वकारः प्रयासरतोऽस्तीति उदैरयत। मन्त्री शर्मा पञ्चविंशतेः वर्षाणां पश्चात् एनसेल सेवा नेपाल सर्वकारस्य अन्तर्गता भविष्यतीति विषयस्य निरसनस्य कुप्रचारे कापि सत्यता नास्तीति स्पष्टीकृतवती। उपवेशस्य शून्य समये सांसदाः सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन् सांसदाः चक्रवृद्धि पीडितानां जनानां समस्यायाः समाधानं वर्धमानाय मर्घतायाः नियन्त्रणं संघीय सर्वकारीय सेवाधिनियमः मातु नाम्नि नागरिकतायाः प्रदेयस्य विषयः विपज्जन्य घटना पीडितानां संरक्षणं तेभ्यः क्षतिपूर्ति प्रदातव्येति च विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभाया ह्यस्तनोपवेशेन संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा सुदन किराँती इत्यनेन प्रस्तुतः राष्ट्रिय सभातः ससन्देशं प्राप्तं गत विक्रम वर्षीयम् अभिलेख संरक्षण प्रथम संशोधन विधेयकम् आधृत्य विमृश्यतामिति प्रस्तावः स्वीकृतोऽस्ति। तत्पूर्वम् उपवेशे प्रधानमन्त्रिणः पक्षतः संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा सुदन किराँती इत्यनेन राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगस्य चतुर्थम् एतद् विक्रम वर्षीयं वार्षिकं प्रतिवेदनं प्रस्तुतम् आसीत्। तत्पूर्वम् उपवेशे विशेष समयं गृहीत्वा नेपाली कांग्रेस दलस्य महामन्त्री सांसदश्च गगन कुमार थापा गठबन्धनस्य सर्वकारेण सार्वजनिककृतानां संयुक्त न्यूनतम कार्यक्रमाणां क्रियान्वयनं प्रति ध्यानं केन्द्रीकर्तव्यम् इत्युक्तवान्। संयुक्त न्यूनतम कार्यक्रमाणां क्रियान्वयनाय सर्वकारस्य सर्वान् निकायान् परिचालयितुम् अनुरुन्धानः मन्त्री महामन्त्री थापा एकस्मिन् दिने एकः परिणामः इति समाघोषेण कार्याणि विधातुम् परामृष्टवान्। उपवेशे नेकपा माओवादी केन्द्रस्य नेता सांसदस्य देवेन्द्र पौडेलः संविधानेन वर्तमान राजनैतिक व्यवस्थया च जनतायै सर्वकारीय सेवा सुलभा समावेशिनी च विहिता स्थिति उदैरयत। राष्ट्रिय स्वतन्त्र दलस्य सांसद डाक्टर तोसीमा कार्की राष्ट्रस्य स्वास्थ्य क्षेत्रे 47.2 विक्रम वर्षस्य पदस्थानैरेव अधुनापि सेवाया प्रवाह विद्यमानोऽस्ति त्यतः तत्कालं संघीय प्रादेशिक स्तरे पदपूर्ति विधेयति परामृशत। प्रतिनिधिसभाया अपरूपवेश परस्व चैत्रस्य 27 दिवसे दिवा एकवादने वस्ता। उपप्रधान रक्षा मन्त्री पूर्णबहादुर खड्का कथयति देशस्य सामरिकावस्थितेः विद्यमानस्य विश्वपरिवेशस्य च अनुरूपं सन्तुलित व्यवहारः आवश्यको वर्तते। सैन्य कार्यालयस्य ह्यो निरीक्षण भ्रमणं विदधाना उपप्रधानमन्त्री खड्का अगदत् जनतायाः आशा विश्वासयोः जागरणार्थं रक्षा मन्त्रालयेन नेपाली सेनया च मिलित्वा कार्येषु विहितेषु सत्सु पारे आसम् उपलब्धिः अवाप्स्यते। तदवसरे प्रधान सेनापति प्रभुराम शर्मा नेपाली सेना संविधानेन प्रदत्तं दायित्वं सर्वकारेण विशेष परिस्थितौ निर्दिष्टं विध्यनुरूपम् अतिरिक्तं दायित्वं च निर्वोढुं सदैव तत्परास्तीति अवोचत। रक्षा सचिव किरण राज शर्मा अकथयत् नेपाली सेनाया समग्र क्षमताया विकासाय विद्यमानस्य काठिन्यस्य समाधानाय च उपप्रधान रक्षा मन्त्रित्व दायित्व वहनस्य अनुपदमेव साविरुचि समहत्वं च निर्देशनानि प्राप्यमाणानि सन्ति। सर्वकारेण चक्रवृद्धि धनपीडितैः जनैः सह वार्तायै गृहमन्त्रालयस्य सहसचिवस्य प्रदीप कुमार कोइराला विधस्य संयोजकत्वे पञ्चसदस्यीया वार्ता समितिः संघटिता अस्ति। गत सप्ताह एव सर्वकारेण चक्रवृद्धि धनपीडितानां समस्यायाः समाधानाय पूर्व न्यायाधीशस्य गौरी बहादुर कार्केणः नेतृत्वे अधिकार सम्पन्नायोगः संघटितः सन्नपि चक्रवृद्धि धनपीडितैः जनैः आन्दोलनाश य नैरन्तर्य प्रदानानन्तरं तेषां याचनां सम्बोधयितुं वार्ता समितिरेषा संघटिता अस्ति। उपप्रधानमन्त्री गृहमन्त्री च नारायणकाजी श्रेष्ठ पीडितानां जनानां समस्याम् अविलम्बं सम्बोधयितुं निर्दिष्टवान्। समित्या तत्कालम् आवश्यक प्रयास प्रारभ्यते इति च गृहमन्त्रालयस्य प्रवक्ता जितेन्द्र बस्नेत अज्ञापयत्। वैदेशिक वृत्त्युपार्जनस्य क्रमे मृतानां जनानां परिवारान् प्रलोभने निपात्य वित्तवञ्चनस्य आरोपेण प्रहरिणा सर्जना निगृह्य ह्य सार्वजनीकृता सन्ति। निगृहितेषु काष्ठमण्डपस्य गुङ्गबुवासी रामबहादुर तामाङ, सर्लाई जनपदस्य लालबन्दी नगरपालिकाया अष्टमवडा क्षेत्रस्य विनोद कुमार लामा, डिगबहादुर मल्ल, रविन उपनामा, रविन्द्र मोक्तान, प्रकाश बहादुर गोले, रुद्रमान गोले च सन्तीति उपत्यका पराधानुसन्धान कार्यालयेन पत्रकार सम्मेलनम् आयोज्य ज्ञापितं वर्तते। निगृतैः एभिर्जनैः वैदेशिक वृत्त्युपार्जनाय विदेशे एव कार्यरतावस्थायां केनापि कारणेन मृतैः अवकाशावधौ नेपालागमनस्य अवस्थायां मृतैश्च नेपालीभिः जीवन सुरक्षण कोषस्य स्वरूपेण प्राप्तव्यं वित्तं मृतकानां सम्बन्धिजनेभ्यो दापयिष्यते इत्युद्दीर्य वञ्चनं विहितम्। एतदर्थम् एभिः प्रतिमृतकं 7,00,000 रूप्यकाणि यावत् वञ्चनं च कृतमिति वरिष्ठ परिपरीक्षकः डाक्टर मनोज केसी अवोचत। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयेन वैदेशिक वृत्ति समितेः जीवन सुरक्षण कोषस्य च माध्यमेन प्राप्तव्याम् आर्थिक सहायतां प्राप्तुं केनापि जनेन मध्यस्थाः अनुचित लाभग्राहिणा न विश्वसनीयाः इत्यनुरुद्धं वर्तते। मन्त्रालयस्य सहसचिवेन प्रवक्त्रा च डण्डुराज घिमिरे विधेयन ह्य प्रकाशिताया विज्ञप्तेर्माध्यमेन वैदेशिक वृत्त्युपार्जनस्य क्रमे मृतानां श्रमिकाणां परिवारैः वैदेशिक वृत्ति समितेः जीवन सुरक्षण कोषस्य च माध्यमेन प्राप्तव्यं वित्तं पश्चात्तन समये मध्यस्थैः अनुचित लाभग्राहिभिः वञ्च्यमानम् अस्तीति उल्लिख्य समितेः सुरक्षण कोषस्य च माध्यमेन प्राप्तव्यं वित्तं प्राप्तुं कस्मिन्नपि जने विश्वासं न धर्तुं तस्य प्रभावे न बसी भवितुं च अनुरुद्धमस्ति। इति समाचारः।